इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री वरिष्ठ भाजपेति दलस्य नेता च नरेन्द्रमोदी अद्य झारखण्डे विधानसभा निर्वाचनाय भाजपा नेतृत्वस्य राष्ट्रिय जनतांत्रिक गठबंधनस्य प्रत्याशिनां कृते समर्थनम् अवाप्तये च द्वे निर्वाचन सभे संबोधयिष्यति। झारखण्ड भाजपाध्यक्षः पूर्व मुख्यमंत्री च बाबूलाल मरांडी उक्तवान् यत् प्रधानमंत्री गढ़वानगरे प्रथमां जनसभां प्रातः 11:30 संबोधयिष्यति, अपरं च अपराह्ने 3 चाईबासायां संबोधयिष्यति। राज्ये मतदानस्य सूचनायाः घोषणानन्तरं झारखण्डे प्रधानमन्त्रिणः मोदिनः प्रथमा निर्वाचनसभा भविष्यति। नवम्बर मासस्य 23-20 दिनांकयोः द्विचरणीय मतदानं राज्ये भविष्यति। अद्य नवदिल्ल्याः भारतमण्डपम् इत्यत्र अन्तर्राष्ट्रिय सौर गठबंधन सभायाः सप्तमं सत्रस्य उद्घाटनं भविष्यति। आईएसए सभा अन्तर्राष्ट्रिय सौर गठबंधनस्य उपक्रमेषु विचारं करिष्यति। ये ऊर्जा परिवेषणं सुरक्षां परंपरां च प्रभावितं कुर्वन्ति। महाराष्ट्रे विधानसभा निर्वाचनाय नामांकन प्रत्यावर्तनं अद्य समाप्तिं यास्यति। प्राप्त सूचनानुसारं महायुतितः प्रायः 38 प्रत्याशिनः, महाविकास अघाडीतः 26 प्रत्याशिनः च विद्रोह प्रदर्शनं कुर्वन्ति। अभ्यर्थिनः परस्परं विरुद्धं नामांकनं कृतवन्तः। अनेकेषु निर्वाचनक्षेत्रेषु मैत्रीपूर्णाः स्पर्धाः च सन्ति। निर्वाचनायोगेन प्रकाशितस्य मतदातॄणां सूच्यानुसारं 5 कोटितोप्यधिकाः पुरुषाः, 14.5 कोट्यावत् महिलाः च निर्वाचने समाविष्टाः सन्ति। 70.9 लक्षाधिकोप्यधिकाः जनाः निर्वाचने स्वस्य मताधिकारस्य प्रयोगं करिष्यन्ति। अद्य हरिद्वारे गंगा उत्सवस्य 8th संस्करणम् आचर्यते। आध्यात्मिक नगरस्य चण्डीघाटे आयोजनस्य सज्जता क्रियते। गंगा उत्सवस्य आयोजनं NMCG इति राष्ट्रिय स्वच्छ गंगा मिशन इत्यनेन अद्य क्रियते, यस्योद्देश्यं गंगानद्याः संरक्षणं प्रवर्धयितुं तस्याः सांस्कृतिकं आध्यात्मिकं च महत्त्वं प्रकाशयितुं स्वच्छतां प्रति जनसामान्यं प्रति जागरूकतां जनयितुं च वर्तते। रेलमन्त्रालयेन महोत्सवसमये यात्रीणां सौविध्याय विशेषव्यवस्थारूपेण दिल्लीतः देशस्य विभिन्नेषु भागेषु प्रायः 20 विशेषरेलयानानि चालयन्ति। तेषु दरभंगा, बरौनी, पटना, कटरा, मुजफ्फरपुर, बलिया, कामाख्या, आजमगढ़ चेत्येषां क्षेत्राणां कृते विशेषरेलयानानि सन्ति। विशेषतः षट्पूजायाः कृते अस्य मासस्य 2 दिनांकतः 8 दिनांकपर्यन्तं 45,000+ अतिरिक्तरेलयानानि प्रचलन्ति। एवं प्रकारेण प्रतिदिनं प्रायः 2,00,000+ अतिरिक्तयात्रिणां कृते रेलयात्रा सुलभा क्रियते। रेलमार्गेण अक्टूबर मासस्य प्रथमदिनांकात् नवम्बर मासस्य 30 दिनांकपर्यन्तं उत्सवेषु प्रायः 7,000 विशिष्टरेलयानानि व्यवस्थापितानि सन्ति। केन्द्रीय सूचना प्रसारण रेल तथा प्रविधि मंत्री अश्विनी वैष्णव एकदिवसीयायां केरलयात्रायां ह्यः कोची क्षेत्रं सम्प्राप्तवान्। सः रेलसम्बद्धं निर्माणं अमृत भारत एक्सप्रेस रेलयानं स्टेशन इति रेलस्थात्र विकास परियोजनां निरीक्षितुं विशेषेण रेलयानेन अलुवात् कोझिकोड यावत् यात्रां विहितवान् इति वार्ताः।